इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी छत्तीसगढ़े आयोजितस्य आरक्षि महानिदेशकानां षष्टितमस्य अखिल भारतीय सम्मेलनस्य अध्यक्षतां विहितवान्। प्रशासनेन सोमवासरात् आरभ्य संसदः शैत्यकालिक सत्रात् पूर्वं श्वः सर्वपक्षीय उपवेशनम् आहूतमस्ति। भारतीय ऋतु विज्ञान विभागेन उत्तरीय तमिलनाडु पुद्दुचेरी दक्षिणान्ध्रप्रदेशयोः तटयोः कृते दित्वा नामधेयं चक्रवातमालक्ष्य रक्तसंचेतना प्रख्यापिता। अपि च मलेशियायां संजातायां सुल्तान अजलान शाह हॉकी इति स्पर्धायां भारतीय दलेन कनाडा दलं 14-3 इति अंकअंतरालैः पराजितम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी छत्तीसगढ़े आयोजितस्य आरक्षी महानिदेशकानां षष्टितमस्य अखिल भारतीय सम्मेलनस्य अध्यक्षतां विहितवान्। प्रधानमन्त्री श्वः अपि सम्मेलनस्य अन्तर्गतं निर्धारित विविध सत्रेषु अपि भागं ग्रहणं करिष्यति। इदं त्रिदिवसीयं सम्मेलनं ह्यः नवारायपुरस्थ भारतीय प्रबन्धन संस्थाने आरब्धमासीत्। केन्द्रीय गृहमन्त्री अमितशाह सम्मेलनस्यास्य उद्घाटनं कृतवान्। अवसरेऽस्मिन् सः अवदत् यत् एतत् सम्मेलनम् आन्तरिकसुरक्षायाः समाधानार्थं परिकल्पितम् अस्ति, यत् रणनीति नीति निर्माणयोः कृते व्यापक सिद्धान्तान् निर्धारयति। श्रीशाह अवदत् यत् देशे विगत एकादशवर्षेषु कट्टरवादः, अतिवादः, विद्रोह, मादकद्रव्याणि चेत्यादीनां विरुद्धम् अभियानेषु महती प्रगतिः सञ्जाता अस्ति। केन्द्रीय गृहमन्त्री देशस्य त्रयाणां सर्वोत्तमानाम् आरक्षिस्थानकानां कृते आरक्षिपदकानि प्रदत्तानि। अस्मिन् वर्षे सम्मेलनस्य विषयः विकसित भारत सुरक्षा आयाम इति अस्ति। प्रशासनेन सोमवासरात् आरभ्य संसदः शैत्यकालिक सत्रात् पूर्वं श्वः सर्वपक्षीयोपवेशनम् आहूतम् अस्ति। उपवेशनेऽस्मिन् संसदीय कार्याणां मन्त्री किरेन रिजिजुः संसदः उभयोः सदनयोः राजनैतिकदलानां नेतृभिः सह मेलनं करिष्यति। उपवेशनेऽस्मिन् प्रशासनं सत्रावधौ लोकसभायाः राज्यसभायाः च सुचारुतया सञ्चालनं सुनिश्चितं कर्तुं सर्वेभ्यः राजनीतिकदलेभ्यः सहयोगं याचयिष्यति। एतत् सत्रं दिसम्बर मासस्य प्रथमदिनाङ्कात् आरभ्य दिसम्बर मासस्य 19 दिनाङ्कं यावत् प्रचलिष्यति। सत्रावधौ बहवः महत्वपूर्णेषु विधेयकेषु चर्चां समेत्य तेषां पारितं भवितुं सम्भावना वर्तते। भारतीय ऋतु विज्ञान विभागेन उत्तरीय तमिलनाडु पुद्दुचेरी दक्षिण आन्ध्रप्रदेशयोः तटयोः कृते दित्वा नामधेयं चक्रवातमालक्ष्य रक्तसंचेतना प्रख्यापिता। विभागेन दित्वा इत्यस्य चक्रवातस्य उत्तरपश्चिमदिशि प्रति संवर्धनस्य अपि च श्वः प्रातः कालं यावत् तमिलनाडु पुद्दुचेरी दक्षिण आन्ध्रप्रदेशस्य चेत्यादीनां तटानां समीपे सम्प्राप्तस्य सम्भावना प्रकटिता। विभागानुसारं दित्वा नामधेयं चक्रवातम् अद्य अर्धरात्रौ बंगप्रदेशस्य दक्षिणपश्चिमखात्यां केन्द्रितं भविष्यति। अस्मिन्नेव क्रमे विभागेन श्वः यावत् तमिलनाडुराज्ये तीव्रवर्षायाः सहैव भिन्नभिन्नस्थानेषु प्रचण्डवृष्टेः पूर्वानुमानं कृतमस्ति। तटीय आन्ध्रप्रदेश यनम रायलसीमा चेत्येषु क्षेत्रेषु सोमवासरं यावत् तीव्रवृष्टेः संभावना प्रकटिता अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। नागर विमानन महानिदेशालयेन DGCA इत्यनेन एयरबस इति समवायस्य ए 320 इत्यस्याः श्रृङ्खलायाः विमानानां सञ्चालनं प्रभावितया स्थगितम्। एयरबस् इति समवायः A318, A319, A320, A321 चेत्यादीनां विमानानां निरीक्षणपरिष्कारयोः च प्रक्रियायाः अनन्तरमेव एतेषां विमानानां उड्डयनं कर्तुं शक्ष्यन्ति। एयरबस् इति निर्मातृसमवायः A320 श्रृङ्खलायाः सहस्राणां विमानानां परीक्षणस्य आदेशः प्रदत्तम्। एयरबस् इत्यनेन A320 विमानस्य दुर्घटनायाः अनन्तरम् एतत् आदेशं प्रख्यापितम् अस्ति। निर्वाचनायोगेन सर्वेभ्यः नागरिकेभ्यः ECI नेट एप् इति चलदूरभाषीयतन्त्रांशं स्थापयितुं समाह्वानं विहितम्। सहैव एतदपि उक्तं यत् तन्त्रांशम् अधिकम् उपयोक्त्रि अनुकूलं कर्तुं परामर्शाः दद्युः। नागरिकाः अग्रिममासस्य 27 दिनाङ्कं यावत् एतस्मिन् तन्त्रांशे स्वपरामर्शं स्थापयितुं शक्नुवन्ति। आयोगेन उक्तं यत् उपयोक्तृपरामर्शाः परीक्षिताः भविष्यन्ति, तथा च मञ्चम् अधिकम् उपयोक्तृ अनुकूलं कर्तुम् अधिकाः प्रयासाः भविष्यन्ति। ECI नेट् इत्यस्य तन्त्रांशस्य आधिकारिकविमोचनम् अग्रिमवर्षस्य जनवरी मासे निर्धारितम् अस्ति। निर्वाचनायोगेन सूचितं यत् ECI नेट् ऐप् इत्यस्य परीक्षणसंस्करस्य उपयोगः बिहार विधानसभानिर्वाचनसमये कृतम् आसीत्। प्रधानमन्त्री नरेन्द्रमोदी श्वः प्रातः 11 आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटिष्यति। मासिकस्य आकाशवाणीकार्यक्रमस्य एतत् 28-तमं संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ताविभागस्य अन्तर्जालपटले www.newsonair.com इत्यत्र अपि च newsonair इति चलदूरभाषीये तन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी दूरदर्शनवार्ता प्रधानमन्त्रीकार्यालय सूचनाप्रसारणकार्यालयानां यूट्यूब वाहिनीभिः च अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्याः क्षेत्रीयासु भाषासु अपि भविष्यति। मलेशियायां सञ्जातायां सुल्तान अजलान शाह हॉकी इति स्पर्धायां भारतीयदलेन कनाडादलं 14-3 इति अंक अंतराले ही पराजितम्। मुख्यवार्ताः पुनरेकवारम्। प्रधानमंत्री नरेंद्र मोदी छत्तीसगढ़े आयोजितस्य आरक्षी महानिदेशकानां षष्टितमस्य अखिल भारतीय सम्मेलनस्य अध्यक्षतां विहितवान्। प्रशासनेन सोमवासरात् आरभ्य संसदः शैत्यकालिक सत्रात् पूर्वं श्वः सर्वपक्षीयोपवेशनम् आहूतम् अस्ति। भारतीय ऋतुविज्ञान विभागेन उत्तरीय तमिलनाडु पुद्दुचेरी दक्षिण आंध्रप्रदेशयोः तटयोः कृते दित्वा नामधेयं चक्रवातमालक्ष्य रक्तसंचेतना प्रख्यापिता। अपि च मलेशियायां संजातायां सुल्तान अजलान शाह हॉकी इति स्पर्धायां भारतीयदलेन कनाडादलं 14-3 इति अंक अंतरालैः पराजितम् इति वार्ताः।